श्रीमद्भागवत महापुराणम् दशमस्कन्धः अथैकोनत्रिंशोऽध्यायः श्रीशुक उवाच भगवानपि तारात्रे शरदोत्फुल्लमल्लिकाः वीक्ष्यरन्तुं मनश्चक्रे योगमायामुपाश्रितः तदोडुराजक् ककुभक् करैर्मुखं प्राच्या विलिम्पन् नरुणेन शन्तमयैः सचर्षणीनामुदगाच्छुचो मृजन् प्रियः प्रियाय इव दीर्घदर्शनः दृष्ट्वा कुमुद् वन्तमखण्डमण्डलं रमाननाभन् नवकुङ्कुमारुणं वनै च तत् कोमलगोभीरैजितै जगौ कलौ वामदृशां मनोहरम् निशम्य गीतं तदनङ्गवर्धनौ व्रजस्त्रियक् कृष्णगृहीतमानसाः आजग्मुरन्योन्यमलक्षितोद्यमास् स यत्र कान्तो जवलोलकुण्डलाः दुहन्त्योभियुक् काश्चिद्दोहं हित्वा समुत्सुकाः पयोधिश्रित्य संयाव मनुद्वास्यापराययुः परिवेशयन्त्यस्तद्धित्वा पाययन्त्यशिशून्पयः शुश्रूषन्त्यः पतीन् काश्चि दश्नन्त्योपास्य भोजनम् लिम्पन्त्यः प्रमृजन्त्योन्यायजन्त्यः काश्च लोचने व्यत्यस्तवस्त्राभरणाक् काश्चित् कृष्णान्तिकैययुः तावार्यमाणाः पतिभिः पितृभिर्भ्रातृबन्धुभिः गोविन्दापरुतात्मानो नन्यवर्तन्तमोहिताः अन्तर्गृहगताः काश्चिद्गोप्यो लब्धविनिर्गमाः कृष्णं तद्भावनायुक्ता दध्युर्मीलितलोचनाः दुस्सह प्रेष्ठविरहतीव्रतापधुताशुभाः ध्यानप्राप्ताच्युताश्लेष निर्वृत्त्या क्षीणमङ्गलाः तमेव परमात्मानैजारबुद्ध्यापि सङ्गताः जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः राजोवाच कृष्णौ विदुः परं कान्तं न तु ब्रह्मतया मुने गुणप्रवाहो परमस्तासां गुणधियां कथम् श्रीशुक उवाच उक्तं पुरस्तादेतत्ते चैद्यसिद्धे यथा गतः द्विषन्नपि ऋषिकेशं किमुताधोक्षजप्रियाः नृणान्निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव च नित्यं हरौ विदधतो यान्ति तन्मयतां हिते न चैव विस्मयः कार्यो भवता भगवत्यजे योगीश्वरेश्वरे कृष्णे यत एतद्विमुच्यते तादृष्ट्वान्तिकमायाता भगवान् व्रजयोषितः अवदद्वदतां श्रेष्ठो वाचः पेशैर्विमोहयन् श्रीभगवानुवाच स्वागतो महाभागाः प्रियं किं करवाणि वः व्रजस्यानामयं कच्चिद् ब्रूतागमनकारणम् रजन्येषा घोररूपा घोरसत्त्वनिषेविता प्रतियातव्रजन्येहस्थेयं स्त्रीभिः सुमध्यमाः मातरः पितरः पुत्रा भ्रातरः पतयश्च वः विचिन्वन्ति अपश्यन्तो मा क्रुड्वं बन्धुसाध्वसम् दृष्टौवनं कुसुमितं राकेशकररैजितं यमुनानिलनीलैजत्तरुपल्लवशोभितम् तद्यातमाचिरङ्गोष्ठं शुश्रूषध्वं पतीं सतीः क्रन्दन्ति वत्सा बालाश्च तान् पाययत दुह्यत अथवा मदभिस्नेहाद्भवत्यो यन्त्रिताशयाः आगतायुपपन्नौ वः प्रीयन्ते मयि जन्तवः भर्तुशुश्रूषणं स्त्रीणां परो धर्मोऽयमायया तद्बन्धूनाय च कल्याण्यः प्रजानाय चानुपोषणम् दुःशीलो दुर्भगो वृद्धो जडो रोग्यधनोऽपि वा पतिस्त्रीभिर्न हातव्यो लोकेऽप्सुभिरपातकी अस्वर्ग्यमयशस्यै च फल्गुकृच्छ्रं भयावहम् जुगुप्सितै च सर्वत्र औपपत्यङ्कुलस्त्रियाः श्रवणाद्दर्शनाध्यानान्मयि भावो नुकीर्तनात् न तथा सन्निकर्षेण प्रतियात ततो गृहान् श्रीशुक उवाच इति विप्रियमाकर्ण्य गोप्यो गोविन्दभाषितम् विषण्णा भग्नसङ्कल्पाश्चिन्ता मापुर्दुरत्ययाम् कृत्वा मुखान्यवशुचश्वसनेन शुष्यद् बिम्बाधराणि चरणेन भुवल्लिखन्त्यः अस्रैरुपातमषिभिः कुचकुङ्कुमानि तस्थुर्मृजन्त्य उरुदुःखभरा स्म तूष्णीम् प्रेष्ठं प्रियेतरमिव प्रतिभाषमाणं कृष्णं तदर्थ विनिवर्तित सर्वकामाः नेत्रे विमृज्य रुदितोपहते स्म केचित् संरम्भगद् गदगिरो ब्रुवतानुरक्ताः गोप्य ऊचुः मैवं विभोर्हति भवान् गदितुन्द्रुशंसं संत्यज्य सर्वविषयांस्तव पादमूलम् भक्ता भजस्व दुरवग्रहमा त्यजास्मान् देवो यथादिपुरुषो भजते मुमुक्षून् यत्पत्यपत्य सुहृदामनुवृत्तिरङ्गस् स्त्रीणां स्वधर्म इति धर्मविदात्वयोक्तम् अस्त्वेवमेतदुपदेशपदे त्वयीशे प्रेष्ठो भवांस्तनुभृतां किल बन्धुरात्मा कुर्वन्ति हि त्वयि रतिं कुशलास्वात्मन् नित्यप्रिये पतिसुतादिभिरार्तिदैक् किम् तन्नः प्रसीद परमेश्वर मा स्म छिन्द्या आशां भृतां त्वयि चिरादरविन्द नेत्र चित्तं सुखेन भवता परुतं ग्रहेषु यन्निर्विशत्युतकरावपि गृह्य कृत्ये पादौ पदन्न चलितस्तव पादमूलात् यामक कथं व्रजमथो करवाम किंवा सिञ्चाङ्गनस्त्वदधरामृतपूरकेण हासावलोककलगीतजरुच्छयाग्निं नो चेद्वयं विरहजाग्न्युपयुक्तदेह ध्यानेन यामपदयोः पदवीं सखेते यर्यम्बुजाक्ष तव पादतलं रमाया दत्तक्षणं क्वचिदरण्यजन प्रियस्य अस्प्राक्ष्मतत् प्रभृतिनान्यसमक्षमङ्गस् स्थातुं त्वयाभिरमिता बत पारयाम श्रीर्यत्पदाम्बुजरजश्चकमीतुलस्या लब्ध्वापि वक्षसि पदं किल वृत्यजुष्टम् यस्यास्ववीक्षणकृतेन्यसुरप्रयासस्तद्वद्वयै च तव पादरजः प्रपन्नाः तन्नः प्रसीद वृजिनार्दनतेऽङ्घ्रिमूलम् प्राप्ता विसृज्य वसतिस्त्वदुपासनाशाः त्वत्सुन्दरस्मितनिरीक्षणतीव्रकाम तप्तात्मनां पुरुषभूषणदेहि दास्यम् वीक्ष्यालकावृतमुखं तव कुण्डलश्री गण्डस्थलाधरसुधं हसितावलोकम् दत्ताभयै च भुजदण्डयुगं विलोक्य वक्षश्रियैकरमणै च भवामदास्यः कास्त्र्यङ्गते कलपदायतमूर्छितेन सम्मोहितार्यचरितान्न चले त्रिलोक्याम् त्रैलोक्यसौभगमिदै च निरीक्ष्य रूपै यद्गोद्विजद्रुममृगाः पुलकान्यबिभ्रन् व्यक्तं भवान् व्रजभयार्तिहरोऽभिजातो देवो यथादिपुरुषस्सुरलोकगोप्ता तन्नो निधेहि करपङ्कजमार्तबन्धो तप्तस्तनेषु च शिरस्सु च किङ्करीणाम् श्रीशुक उवाच इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः प्रहस्य सदयं गोपीरात्मा रामोऽप्यरीरमत् ताभिः समेताभिरुदारचेष्टितः प्रिये क्षणोत्फुल्लमुखीभिरच्युतः उदारहासद्विजकुन्ददीधितिर्व्यरोचतैणाङ्क इवोडुभिर्वृतः उपगीयमान उद्गायन् वनिता शतयूथपः मालां बिभ्रद्वै जयन्तीं व्यचरन् मण्डयन् वनम् नद्याः पुलिनमाविश्य गोपीभिर्हिमवालुकं रेमे तत्तरलानन्द कुमुदामोदवायुना बाहु प्रसार परिरम्भकरालकोरु नीविस्तनालभननर्मनखाग्रपातैः क्ष्वेल्यावलोकहसितैर्व्रजसुन्दरीणा मुत्तं भयं रतिपतिं रमयाय चकार एवं भ भगवतः कृष्णाल्लब्धमाना महात्मनः आत्मानं मे निरे स्त्रीणां मानिन्योऽभ्यधिकं भुवि तासां तत्सौभगमदौ वीक्ष्यमानै च केशवः प्रशमाय प्रसादाय तत्रैवान्तरधीयत इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे भगवतो रासक्रीडा वर्णनं नामैकोनत्रिंशोऽध्यायः ॐ सर्वं श्रीकृष्णाय